स्रजाम् चन्द्राम् हिरण्मयेम् लक्ष्मीम् जातवेदम् आवह ताम् आवह जातवेद लक्ष्मीमनवगामिने यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिने श्रियम् देवेमुपक्वये श्रेर्मा देवे जुषता ताम् सोऽस्मिताम् हिरण्यप्राकारामार्द्राम् ज्वलन्ते तृप्तान् तर्पयन्ते पद्मे स्थिताम् पद्मवर्णान् त्वामिहोपक्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्ते श्रियम् लोके देवदुष्टामुदाराम् ताम् पद्मिने मेम् शरणमहम् प्रपद्ये लक्ष्मेर्मेणस्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजात वनस्पतस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तो मायान्तरायाश्च बाह्या लक्ष्मेः उपैतुमान् देवसखः कीर्तश्च मणिना सह प्रादुर्भूतास्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिम् ददातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीम् नाशयाम्यहम् अभूतिमसमृद्धिम् च सर्वाणिर्न्यतमे गृहात् गन्धद्वारान् दुराधर्षान्नित्यपुष्टाङ्करेषिणे ईश्वरेकम् सर्वभूतानाम् कामिहोपक्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमसेमहे पशूनाम् रूपमन्नस्य मयश्रे श्रयताम्यशः कर्दमेण प्रजाभूतामये सम्भव कर्दम श्रियम् वासय मे कुले मातरम् पद्ममालिने आपसृजन्तु सिग्धानि चिक्ले तव समे गृहे निज देवे मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् सुवर्णाम् हेममालिने सूर्याम् हिरण्मयेम् लक्ष्मीम् जातवेदम् आवह आर्द्रायः करिणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयेम् लक्ष्मीम् जातवेदम् आवह ताम् आवह जातवेद लक्ष्मीमनपगामिने यस्याम् हिरण्यम् प्रभातम् गावादास्यास्वान् विन्देयम् पुरुषानहम् स च प्रयता भूत्वा जुहुरादाज्यमन्वहम् श्रिय पञ्चदशर्चम् च श्रीकामः सततम् जपेत पद्मानने पद्मभूरो पद्माक्षे पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षेण सौख्यम् लभाम्यहम् अश्वदाये च गोदाये धनदाये महाधने धनम् मे जुषताम् देवे सर्वकामार्थसिद्धये पुत्र पौत्र धनं धान्यं हस्त्यश्वादिगवेरथम् प्रजानां भवसे माता आजष्मन्दङ्गरोतमाम् धनमग्न्यर्धनं वायर्धनं सार्याधनं वसः धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते वैनते यसोमं विपसोमं विपदुरत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिने न क्रोधो न तमात्सर्यो न लोभो न शोभामतेः भवन्ति कृतपुण्यानां भक्तानां श्रेष्ठाक्तं जपेत् सदा चन्द्राभां लक्ष्मीमेषाणां शौर्याभां श्रयमेश्वरे चन्द्रसौर्याग्निसङ्काशां महालक्ष्मीमुपास्महे वर्षन्तु ते विभावरिदिव अभ्रस्य विद्युतः रोहन्तु सर्वबीजान्यवब्रह्मद्विजोजः पद्मप्रजे पद्मनि पद्महस्ते पद्मालये पद्मदलायताक्षे विश्वप्रजे विष्णुमनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व व्यासा पद्मासनस्था विपुलकटितटे पद्मपत्रायताक्षे गम्भीरावर्तनाभिस्तनभरणमिता शुभ्रवस्त्रोत्तरीया लक्ष्मैर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्नापिता हेमकुम्भये नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरे दासे भूतसमस्तदेववणितां लोकैकदेवाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिणीं सरसजां वन्दे मुकुन्दप्रियां सिद्धलक्ष्मैर्मोक्षलक्ष्मैर्जयलक्ष्मैः सरस्वते श्रीलक्ष्मैर्वरलक्ष्मैश्च प्रसन्ना मम सर्वदा वराङ्कुशोपाशमभेदमुद्राङ्करैर्वहन्ते कमलासनस्थाम् बालार्ककोटिप्रतिभान्त्रिणेत्राम् भजेऽहमाद्यां जगदेश्वरेन्ताम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके देवे नारायणे नमोऽस्तु ते महालक्ष्मे च विद्महे विष्णुपत्ने च धीमहे तन्नो लक्ष्मे प्रचोदयात्।